एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। राष्ट्रिय स्वतन्त्र दलस्य प्रथमम् राष्ट्रिय महाधिवेशनम् पूर्वेद्युः चितवन जनपदस्य भरतपुरे प्रारब्धम् वर्तते। महाधिवेशनस्य उद्घाटनम् पूर्वेद्युः दलस्य सभापतिः रवि लामिछाने, दलस्य वरिष्ठ नेता प्रधानमन्त्री च बालेन्द्र शाहश्च घण्टावादनम् कृत्वा अकुरुताम्। तदवसरे मञ्चे विद्यमानैः अतिथिभिश्च घण्टावादनम् विहितम् आसीत्। उद्घाटन समारोहम् सम्बोधयन् पूर्वेद्युः प्रधानमन्त्री राष्ट्रिय स्वतन्त्र दलस्य वरिष्ठ नेता च बालेन्द्र शाह वर्तमान सर्वकारः तीव्रगतेः यानमिव अस्तित्यतः लक्ष्य प्राप्तेः पश्चादेव सर्वकारस्य कार्यसम्पादनगतौ शिथिलता आगमिष्यतीति प्रावोचत्। प्रधानमन्त्री शाह कतिपय राजनीतिक दलैः सर्वकारस्य कार्यगतिः अनियन्त्रिता तु न भविष्यति वा इति उक्त्वा विहिताम् टिप्पणीम् संकेतयन् सर्वकारस्य गति नियन्त्रिता एव अस्तीति प्रत्यपादयत्। महाधिवेशनस्य उद्घाटन सत्रे शुभकामना सन्देशस्य प्रदानस्य क्रमे कतिपय राजनीतिक दलानां नेतृभिः प्रदत्तम् परामर्शनम् सर्वकारेण गभीरेण गृहीतमस्ति ज्ञापयन् प्रधानमन्त्री शाह जनतया प्रदत्तम् जनमतम् स्वीकर्तुम् अन्वरुणत्। तदवसरे प्रधानमन्त्री शाह राष्ट्रपादलस्य वैचारिक दृष्टौ चिन्ताम् न कर्तुम् अनुरुन्धाना। राष्ट्रपादलम् विकासवादी दलम् अस्ति इति अगदत्। राष्ट्रपादलम् कार्यम् करिष्यति, प्रतिशोधः अनेन दलेन न साधयिष्यति इति च तदवदौ प्रधानमन्त्री शाह समस्पष्टयत्। सर्वकारीय सम्पदः अपचलन कर्तृषु जनेषु सर्वकारः कठोरेण प्रस्तूयते इति चर्चयन् प्रधानमन्त्री शाह सर्वकारेण विधेः उल्लङ्घनम् न करिष्यते, नियमे एव स्थित्वा कार्यम् विधीयते चेति प्रावोचत्। सम्बोधनस्य क्रमे प्रधानमन्त्री शाह कालापानी, लिम्पियादुरा, लिपुलेक क्षेत्राणि नेपालस्य भूभागाः सन्तीति स्पष्टयन् एतस्य प्रमाणम् सर्वकारस्य पार्श्वे अस्तीति च उदैरयत्। नेपालेन ब्रिटिश देशम् मध्यस्थकर्तृरूपेण न अपितु तदानीन्तन शासन कालिकम् किञ्चन प्रमाणम् अस्ति चेत् सत्यापनकर्तृत्वेन प्रस्तोतुम् इच्छितोऽस्तीति समस्पष्टयत्। स्वस्य राष्ट्रियताम् प्रति शंकाम् न धर्तुम् च तदवसरे प्रधानमन्त्री शाह सर्वान् अन्वरुणत्। कस्यापि समूहोपसमूहस्य निर्माणाय केनापि न प्रवर्तनीयमिति भाषमाणः प्रधानमन्त्री शाह जनतायाः मनोबलम् जेतुम् सर्वैः प्रवर्तनीयम् इत्यत्र बलम् दत्तवान्। सम्बोधनस्य क्रमे प्रधानमन्त्री शाह सम्प्रति राष्ट्रपादलस्य सर्वकारोऽस्ति, कस्मिन्नपि देशनिर्माणस्य उपायाः सन्ति चेत् तथोपायान् संसूचयितुम् कार्यकर्तृन् अनुरुन्धाना, दिनत्रयम् यावत् दलस्य विषये चिन्तयितुम् अन्वरुणत्। प्रधानमन्त्रिणा शाहेन सहकारी समस्या, भूम्यावासहीनानाम् समस्या च अस्मिन्नेव कार्यकाले समाधास्यते, सर्वकारः आगामिनि निर्वाचने नूतन विषयेण सह स्पर्धिष्यते चेति प्रोक्तवान् च प्रोक्तम् च आसीत्। समारोहम् सम्बोधयन् राष्ट्रिय स्वतन्त्र दलस्य सभापति रवि लामिछाने स्वस्य दलेन प्रतिशोधस्य राजनीति न क्रियते इति स्पष्टीकृतवान् वर्तते। सभापति लामिछाने राजनीतिक दलैः विद्यमानम् वैमनस्यम् समाप्य अधुना त एव सहकार्येण देश जनतयोः पक्षे कार्यम् विधीयते इति च प्रतिबद्धताम् व्यक्तवान्। दले एकतास्थिति सन्देशम् प्रदाय अग्रे वर्धितुम् कार्यकर्तृन् अनुरुन्धाना सभापति लामिछाने, एकतायाम् सत्याम् कयापि बाह्य शक्त्या दले विचलनम् आनेतुम् न सक्ष्यते इति समस्पष्टयत्। तदवसरे सभापति लामिछाने नेपाली कांग्रेस, नेकपा, एमाले आदिषु दलेषु विद्यमानाम् समस्याम् समाधातुम् परामर्शनम् प्रददत्। अन्य दलेषु समस्यायाम् सत्याम् देशे अपि तस्याः प्रभावो भविष्यतीति उदैरयत्। उद्घाटन समारोहम् सम्बोधयन् सभापति लामिछाने पूर्व सहमति अनुसारेण बालेन्द्र शाहेन एव सर्वकारस्य सञ्चालनम् विधीयते, स्वेन सञ्चालनस्य परिस्थितिः भविष्यति चेदपि परिस्थितिम् परिवर्त्य शाहस्यैव पक्षे सर्वकारस्य सञ्चालनाय अनुकूलम् वातावरणम् निर्मास्यते इति च प्रतिबद्धताम् व्यक्तवान्। उद्घाटन समारोहम सम्बोधयन् दलस्य उपसभापति डाक्टर स्वर्णिम वाग्ले स्वस्य दलम नेपाले राजनीतिक पुनर्जागरणाभियानस्य सञ्चालनस्य क्रमे स्थिति अवोचत। अर्थमन्त्री च दलोपसभापति डाक्टर वाग्ले राष्ट्रपादलस्य उद्देश्यम न केवलं सर्वकारस्य परिवर्तनम् अपितु राजनीतिक संस्कारस्यैव परिवर्तनम् अस्तीति प्रत्यपादयत्। उद्घाटन समारोहम सम्बोधयन् नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा स्वस्य दलम राष्ट्रपादलस्य विरोधी दलम नास्तीति स्पष्टीकृतवान्। समारोहे पूर्व प्रधानमन्त्री डाक्टर बाबुराम भट्टराई, नेकपा एमाले दलस्य नेता प्रदीप ग्यमाली, नेपाली कम्युनिष्ट दलस्य केन्द्रीय सचिवालय सदस्य वर्षमान पुन, राप्रपा दलस्य अध्यक्ष राजेन्द्र लिङदेन, जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादव, जनमत दलस्य अध्यक्ष डाक्टर सीके राउत च शुभकामना सन्देशान प्रददु। राष्ट्रपा दलस्य प्रथम ऐतिहासिक राष्ट्रिय महाधिवेशनस्य अवसरे एशिया प्रशान्त क्षेत्रस्य प्रमुख राजनीतिक दलैः अपि शुभकामना सन्देशाः प्रेषिताः वर्तन्ते। अत्रान्तरे राष्ट्रपा दलस्य प्रथम महाधिवेशनस्य निर्वाचन तालिका सार्वजनिकृता वर्तते। तालिकाया अनुसारेण अद्य दिवा द्विवादनात् चतुर्वादनं यावत् प्रत्याशिनां मनोनयन पत्राणां पञ्जीकरणं विधीयते चेत् अद्य रात्रौ एकादशवादने प्रत्याशिनाम् अन्तिम नामावली प्रकाशयिष्यते। इति समाचाराः।